येषा रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। रामेछाप जनपदस्य लुभु वीरस्थाने ह्यो दुरापन्नायम् बसयानस्य दुर्घटनायम् मृतानाम् त्रयोदशानामेव जनानाम् सत्यापनम् सम्भूतम् वर्तते। रामेछाप जनपदस्य सुनापति ग्रामपालिकाया सादीडाँडा स्थानात् काष्ठमण्डपाय प्रस्थीयमानम् यात्रीवाहक बसयानम् लुभु वीरस्थाने दुर्घटितम् सत् नव घटनास्थले एव अन्य चत्वारो जनाश्च उपचार क्रमे धुलीखेल चिकित्सालय मृता इति सुनापति ग्रामपालिकाया प्रमुख ठूलो कान्छा तामाङ अज्ञापयत्। घटनायाम् आहतानाम् त्रयोविंशति जनानाम् विभिन्नेष् चिकित्सालयेष् उपचार विधीयमानो वर्तते। बसयाने चालक सहचालकाभ्याम् सह 37 जना आसन्। राष्ट्रपति विद्यादेवी भण्डारी भाषते देशम् खाद्यान्ने आत्मनिर्भरम् विधातुम् राष्ट्रस्य प्रथम प्राथमिकतायम् कृषि क्षेत्राय स्थान प्रदानात्मक समय आगतो वर्तते। शीतल निवासवर्तिनी राष्ट्रपति कार्यालय ह्य कफग्नि कृषकै सह आयोजित विमर्शन कार्यक्रमे राष्ट्रपति भण्डारी अवोचत् नेपालस्य कफग्नि पियम् विश्वापणम् प्राप्य नेपालस्य समृद्धये सहयोक्तुम् शक्यते इत्यतः अत्र राज्यस्य सम्बद्धानाम् सर्वेषाम् च अनुकूल प्रयत्नम् आवश्यकम् वर्तते। निवासवर्तिनी राष्ट्रपति कार्यालय ह्य एव आयोजित अवरस्मिन् कार्यक्रमे राष्ट्रपति भण्डारी अकथयत् क्रीडा क्षेत्रस्य विकासेन नेपालस्य नाम आविश्वम् प्रकाशितुम् शक्यते इत्यतः क्रीडा क्षेत्रे सर्वेषाम् अभिरूचिम् प्रवर्ध्य एतस्य विकासाय बलम् प्रदातव्यम्। अन्तर्राष्ट्रिय ब्याडमिण्टन क्रीडा दिवसम् आलक्ष्य नेपाल ब्याडमिण्टन संघेन राष्ट्रपति कार्यालय आयोजित कार्यक्रमे राष्ट्रपति भण्डारी विद्यालय क्षेत्रेपि ब्याडमिण्टन क्रीडाम् प्रति वर्तमानम् रुचिम् आदृत्य हर्षम् प्रकटयन्ति। ब्याडमिण्टन क्रीडाय विकासने सह सम्बद्धेन पक्षेण समम् आत्मनोपि सहजीकरणाय तत्परता स्थिति अवोचत्। राष्ट्रपति भण्डारी अब्रवीत् नेपाले भिन्न भिन्न जलवायु क्षेत्रस्य विद्यमानताया कारणेन क्रीडा पर्यटनस्य विकासेन नेपालेन लाभ ग्रहणीय। प्रधानमन्त्री शेरबहादुर देउवा बहुजातीयस्य बहुभाषिकस्य च नेपालस्य संगीत नाटक क्षेत्रम् संरक्ष विकसय्य च अन्तर्राष्ट्रिय क्षेत्रेपि एतत् क्षेत्रे प्रचार प्रसारो आवश्यको स्तः इति निश्चिनोति। नेपाल संगीत नाट्य प्रज्ञा प्रतिष्ठानस्य द्वादशीम् सभाम् ह्य उद्घाटन प्रधानमन्त्री देउवा न केवलम् भौगोलिक्याम् जैविक्याम् चैव अपितु सांस्कृतिकाम् विविधतायाम् च नेपाल धनी अस्तित्व चर्चाइन् अभासत सम्पद राज्यस्य अमूल्य सम्पत्तय वर्तन्ते। प्रधानमन्त्री देउवा सर्वासाम् जातिनाम् समुदायनाम् च भाषा संस्कृति परम्पराणाम् विकसने व्यापृतात् एतादृश सम्पद अन्विष्य अनुसन्धाय च एतासाम् अभिलेखीकरणे च बलम् प्रादात्। प्रधानमन्त्री देउवा अगदत् नेपालस्य सांस्कृतिक विविधतया राष्ट्रिय एकता अतिरिक्ता सुदृढीक्रियते इत्यतः राष्ट्रस्य आभूषणानाम् भाषा कला नाट्य साहित्य सर्जक संस्कार संस्कृतिनाम् प्रोत्साहनाय सम्मानाय च सर्वकारण आवश्यक सहयोगो विधीयते। कार्यक्रमे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री जीवन राम श्रेष्ठ अवोचत् सगरमाथा सर्वोच्च शिखरस्य शान्ति प्रवर्धकस्य गौतम बुद्धस्य च देश नेपालोऽस्ति। विविधतायाम् एकता एव राष्ट्रस्य मौलिकता च वर्तते इत्यतः एतयो संरक्षणे विकासाय च सदा प्रवर्तनीयम्। नेपाली कांग्रेस दलस्य सभापति प्रधानमन्त्री च शेरबहादुर देउवा नेपाल ट्रेड युनियन कांग्रेस संघस्य संस्थापक नेतु पूर्व प्रधानमन्त्री नस्य गिरिजा प्रसाद कोइराला भेदस्य प्रतिमाम् ह्य अनावृणोत्। कोइराला भेदस्य 69वीं जन्म जयन्त्या अवसरे काष्ठमण्डपस्य अनाम नगरे निर्मिताम् गिरिजा प्रसाद कोइराला श्रमिक स्मृति भवने अर्धाकृति प्रतिमामिमाम् प्रधानमन्त्री देउवा अनावृणोत्। कार्यक्रमे प्रधानमन्त्री देउवा गिरिजा बाबु सदैव अविश्रान्त मेलन परस्त नेता आसीदिति अस्मरत। असौ अभासत कठिन राजनीतिकम् आर्वा बरहुम पारम गतेन कोइराला विदेन नेपाली लोकतन्त्र संस्थापनाय महत्वपूर्ण भूमिका निरूढेति हेतु असौ शिखर पुरूष अवर्तत। प्रधानमन्त्री देउवा अकथयत् कोइराला विदेन प्रारब्ध श्रमिकान्दोलनयाम् विराटनगर स्थितायाम् शरण सूत्रोत्पादनशालाम् ऐतिहासिकम् संग्रहालयम् निर्मातुम् सर्वकार अनुकूलो वर्तते। नेकपा माओवादी केन्द्रेण सांगठनिक प्रस्तावस्य प्रतिवेदन निर्माणस्य दायित्वम् दलस्य अध्यक्षाय पुष्पकमल दाहाल प्रचण्डाय प्रदत्तमस्ति। खुमलटारवर्तिनी अध्यक्षस्य दाहालस्य निवासे ह्य उपविष्टेन दलस्य केन्द्रीय कार्यालयेन उपवेशेन निर्णयसु विहित इति अध्यक्षस्य दाहालस्य संचार संयोजक सूर्य किरण शर्मा अज्ञापयत्। दलस्य केन्द्रीय समिति उपवेश संचलन स्थिति हेतोः पोलिट ब्यूरो निकायस्य स्थायी समितिस्य पदाधिकारिणम् विषये सम्पूर्ण दायित्वम् अध्यक्षाय प्रचण्डाय प्रदाय संगठनात्मक प्रस्तावस्य निर्माणा निर्णय विहितो स्थिति संचार संयोजक शर्मा ज्ञापितवान्। अत्रान्तरे नेकपा माओवादी केन्द्रस्य हस्तन दिवसाय निर्धारित केन्द्रीय समिति उपवेशः अद्यतन दिवसाय सारितोऽस्ति। उपवेश अद्यदिवा एकवादनी वसतीति दलस्य प्रवक्ता कृष्ण बहादुर महरा ज्ञापितवान्। गत रविवासरे प्रारब्धे केन्द्रीय समिति उपवेशे अद्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन केन्द्रीय सदस्य उत्थापितानां प्रश्नानां उत्तर प्रदानस्य कार्यक्रम निर्धारितोऽस्ति। नेपाली कांग्रेस दलस्य पदाधिकारिणाम् उपवेशे निर्वाचन विधि प्रारूपम् विमृष्टम् वर्तते। सानेपा स्थिति दलस्य केन्द्रीय कार्यालये ह्य उपविष्टे दलस्य पदाधिकारिणाम् उपवेशे निर्वाचनायोगेन प्रेषितम् विधि प्रारूपम् विमृष्टमिति दलस्य सह महामन्त्री बद्री पाण्डे अज्ञापयत्। प्रत्याशिता पञ्जीकरण मतगणनाय विधातव्यम् व्यवस्थाम् समाविश्य आयोगेन प्रस्तावितस्य विधेयकस्य विषये प्रारम्भिकम् विमर्शनम् विहितमिति सह महामन्त्री पाण्डे अबोधयत्। उपवेशे समाप्त अवधि निभि दलस्य भ्रातृ शुभेच्छक संस्थाभि मान्यता प्राप्तार्थम् दले प्रस्तुतस्य निवेदनस्य विषयेऽपि विमृष्टम् इति च सह महामन्त्री पाण्डे अवोचत्। प्रतिनिधि सभाया राज्य व्यवस्था सुशासन समिति उपवेशे काष्ठमण्डप उपत्यकाया सुरक्षा व्यवस्था नहि प्रदेश सर्वकारस्य अपितु केन्द्रस्य अन्तर्गत विधातुम् सांसदे गृह मन्त्रालय परामृष्टो वर्तते। वर्ष त्रय पूर्वस्य नेपाल प्रहरी प्रदेश प्रहरी कार्य सञ्चालन सुपर्यवेक्षण समन्वयाधिनियमम् संशोधयितुम् निर्मितम् विधेयकम् विमृष्टम् यः सिंहप्रासादे उपविष्टे समिति उपवेशे प्राय सांसदः काष्ठमण्डप उपत्यकाया सुरक्षा प्रदेशान्तर्गतम् संस्थापनात् प्रभावकारिण भवतीति धारणाम् उपास्थापयन्। उपवेशे कथित सांसदा राष्ट्रेण संघीयता अवलम्बितेति हेतोः उपत्यकाय सुरक्षाय अपि प्रदेशाय प्रदानम् उपयुक्तम् भवतीति अतर्कयन्। भारतेन सह सम्पृक्त बैतडी जनपदस्य झोलाघाट प्रवेशबिन्दु अद्य सायं यावत् पिधापितो वर्तते। झोलाघाटवर्तिन दोलासेतो सम्भारस्य कार्यम् चलतीति हेतो अद्य सायं सप्तवादन यावत् प्रवेशबिन्दुरसौ पिधापितोऽस्ति। महाकाली नद्या दोलासेतो भारतीय भागस्य सम्भार विधेयो स्थिति इत्यतः गमनागमनम् पिधापितमिति बैतडी जनपद प्रशासन कार्यालयस्य सूचनाधिकारी खगेन्द्र भारती अज्ञापयत्। प्युठान जनपदस्य ऐरावती ग्रामपालिकाया षष्ठवडा क्षेत्रस्य बिजुलीकोटस्थाने वज्रपातेन जनद्वय मृतम् वर्तते। मृतकयो सप्तवर्षीय रोमन परियार द्वादश वर्षीय किरण परियार च स्तः इति प्युठान जनपद प्रहरी कार्यालयस्य प्रमुख प्रहरी नायब परीक्षक सत्यनारायण थापा अज्ञापयत्। वज्रपातेन ऐरावती ग्रामपालिकाया षष्ठवडा क्षेत्रस्य पञ्च प्रथमवडा क्षेत्रस्य दाङबाङ स्थानस्य चत्वारः चेतकृत्वा समग्रतो नवजना आहता सन्तीति प्रहरिणा ज्ञापितम् वर्तते। आहतानाम् समेषम् बिजुवार वर्तिनी जनपद चिकित्सालय उपचार विधेयमानस्ति प्रहरिण ज्ञापितम् वर्तते। एवमेव वज्रपातेन दैलेख जनपदस्य डुंगेश्वर ग्रामपालिकाया प्रथमवडा क्षेत्रे जनद्वयम् महाबू ग्रामपालिकाया प्रथमवडा क्षेत्रे जनद्वयम् चेति कृत्वा चत्वार जना आहता इति गृह मन्त्रालयस्य अन्तर्गतेन राष्ट्रिय विपत् संकट न्यूनीकरण व्यवस्थापन प्राधिकरणेन ज्ञापितमस्ति। नेपाले कोरोना विषाणु संक्रमणम् दिनानुदिनम् वर्धमानमस्ति। यः नवत्याम् जनेषु कोरोना संक्रमणम् पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितम् वर्तते। सहस्रत्रयस्य द्वादशाधिक शतस्य च निदर्शनानाम् परीक्षणेन नवत्याम् जनेषु संक्रमणम् पुष्टीभूतमस्ति। एवमेव ह्यः 23 जना कोरोना संक्रमणात् मुक्ताः सन्ति। नेपाले सम्प्रति शतचतुष्टयम् एकस्य सक्रिय संक्रान्त जना सुरक्षावासणे स्थित्वा उपचाररता सन्तीति स्वास्थ्य मन्त्रालयेन ज्ञापितम् वर्तते। इति समाचारः।